ब्रह्मणे गादुरे तपो अच्छामनासो न प्रयुक्ति महीम् मित्रस्य वरो नस्य धासुम् पृथुद्रजा शेरीरधासु वृत्तिम् अध्वर्यवो हविष्मन्तो हि भूताच्छावजीतो सतीरुसन्तः अवजाश्चष्टे अरुणस्तु पर्णस्तमाश्चध्वमूर्मिमध्यासु हस्ताः अध्वर्यभोपजीता समुद्रमपान्नपादम् हविषा यजध्वम् सवोदनभूर्मिमध्यासुभूतम् तस्मै सोमम् मधुमन्तम् सुनोत यो अनिद्मो दीगयदत्स्वा अन्तर्यम् विप्रासयीरते अध्वरेषु अपान्नपान्मधुमतीरवोदायाभिरिन्द्रो वा भृदे वीर्याय सोमो मोदते हर्षते च कल्याणीभिर्युपतिभिर्नवर्याः ताध्वर्यो अवो अच्छापदे हि यदा सिञ्चावोषधीभिः पुनीतात् एवेद्यूने युवतयो न मन्त्रयदीमुसन्नो सदीरेत्यच्छ सन्दानदेवन सा सञ्जीवित्वे ध्वजवोऽभिषापश्च देवीः यो वृदाभ्यो अकृणोतु लोकम् यो मह्याभिधस्तेन मुञ्चत् तस्मायिन्द्राय मधुमन्दमूर्मिम् देहमादनम् प्रहीनोदनापः स्मै नोतमधुमन्दमूर्मिङ्गभ्रोजो वस्यन्धभो मध्वमुत्साह मृतपृष्ठवेज्यमध्वरे श्वापो देवी शृणुदाहम् मे तम् सिन्धवो मत्सरमिन्द्रपानमूर्मिम् प्रहेतय उभे यति भरच्युतमौषानम् न भोजाम् परित्रदन्तम् विकरम् तमुत्समम् आरुर्वेदधीरधनुद्विधारा घोषयुधो नीयवम् चरन्तीः ऋषे च मित्रेर्भुवनस्य पत्नीरपोन्दस्व सवृधस्वयोनीः हिनोदानो अध्वरम् देव यज्ञा हिनोद ब्रह्म समये धनानाम् ऋतस्य योगे विष्यध्वमोदः सृष्टिवरीर्भूतनास्मभ्यमापः आपो रेवती क्षयदाहिव स्वकृतम् च भद्रम् विभृतामृतम् च रायश्चस्तस्व भक्तस्य पत्नी सरस्वती तद्गृह्णते वयोधात् प्रदृश्यमायतीर्घमृजांसि बिभ्रतीर्मधूनि आचार्यभिर्मनसा संविधाना इन्द्रायसो मन्त्रुतम् भरन्तीः ेवधन्याध्वर्यवः सारय दासखायः निबर्हिषि सत्तन सोम्या सोपाम् नत्रा संविधानासजेनाः आत्मन्नापुषतीर्बर्हिरेरञ्जभरेरासनन्दे भयन्तीः अध्वर्यवस्सुमतेन्द्रायसो मम भूजवस्सुकारेव यज्ञा